इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। ब्राजीलदेशस्य विदेशमन्त्री मौरो वियेरा इत्येषः ह्यः चतुर्दिवसीय भारतयात्रायाः कृते नवदिल्ल्यां सम्प्राप्तवान्। विदेशमन्त्रालयेन उक्तं यत् विदेशमन्त्री वियेरावर्यस्य यात्रा भारत ब्राजीलयोः साम्प्रदायिक सहभागिताम् इतोऽपि सुदृढं करिष्यति। विदेशमन्त्री एस जयशंकरः वियेरावर्यः च श्वः भारत ब्राजील संयुक्तायोग सभायाः नवम संस्करणस्य सह अध्यक्षतां करिष्यतः। विदेशमन्त्रालयेन उक्तं यत् अवधेयं वर्तते यत् अस्मिन् वर्षे ब्राजीलदेशः G20 अध्यक्षपदं धारयति। उभौ मन्त्रिणौ चर्चां करिष्यतः यत् ट्रोइका इति रूपेण गतवर्षे भारतस्य अध्यक्षतायां प्राप्तान् G20 संघस्य प्रमुख परिणामान् कथम् अग्रे सारयितुं शक्यते। भगवतः श्रीकृष्णस्य जन्मस्य प्रतीकः जन्माष्टमी पर्व अद्य देशस्य विभिन्नेषु भागेषु हर्षोल्लासेन आमान्यते। श्रद्धालवः भगवतः श्रीकृष्णस्य पूजार्चनायै मन्दिरेषु गच्छन्ति। उत्तरप्रदेशे अस्मिन् अवसरे बांके बिहारी मन्दिरम्, इस्कॉन मन्दिरम्, मथुरा वृन्दावनम् च समेत्य नैके देवालयाः सज्जीभूताः। गुजराते द्वारकायाः प्रतिष्ठितं द्वारकाधीश मन्दिरम्, श्री रणछोड़ मन्दिरम् च समेत्य सर्वेषु देवालयेषु कृष्ण जन्माष्टमी पर्व उल्लासेन मान्यते। जम्मू कश्मीरे आगामि विधानसभा निर्वाचनस्य कृते अभ्यर्थिनां नाम अन्तिमरूपेण प्रदानाय भाजपा केन्द्रीय निर्वाचन समित्याः सभा ह्यः नवदिल्ल्याम् आयोजिता। उपवेशने प्रधानमन्त्री नरेन्द्रमोदी, भाजपादलस्य अध्यक्षः जगत प्रकाश नड्डा, केन्द्रीय मन्त्री अमितशाहः, जितेन्द्रसिंहं च समेत्य दलस्य अन्ये वरिष्ठाः नेतारः उपस्थिताः आसन्। पश्चिमैशियायां चिन्तायाः मध्ये लेबनान स्थित उग्रवादी समूहः हिजबुल्लाह समूहः इज़राइल विरुद्धं प्रतीकारात्मकम् आक्रमणं कृतवान्। हिजबुल समूहस्य उच्चपदस्थस्य सैन्यनेतुः फौद सुकुरस्य हत्यायाः प्रतिक्रियायाः प्रथमं चरणमस्ति। ह्यः जातम् आक्रमणं जुलाई मासस्य 30 दिनांके बेरूत नगरस्य दक्षिणीय उपनगरे सुकुरस्य मृत्योः सप्ताहत्रयाधिकस्य अनन्तरम् अभवत्। इदानीम् इज़राइल देशेन घोषितं यत् हिज़्बुल्लाह संघस्य आक्रमणात् पूर्वं लेबनान देशे शतं यावत् युद्धविमानानाम् उपयोगेन पूर्वप्रहाराः कृताः। इज़राइल सैन्येन उक्तं यत् इज़राइल विरुद्धं बृहद् स्तरे आक्रमणस्य सज्जतायाः विषये सूचना अस्ति, येन एतत् कार्याचरणम् अभवत्। इज़राइल देशः 48 होरात्मकस्य राष्ट्रव्यापिनः आपत्कालस्य घोषणां कृतवान्, यदा तेषां सैन्यदलेन लेबनान क्षेत्रे हिजबुल्लाह विरुद्धं आक्रमणं कृतम्। अद्वितीयोपलब्धिरूपेण भारतीय सर्फिंग दलेन जापान देशस्य एची नागोया नगरे 26,000 वर्षे एशिया क्रीडायाः कृते प्रथमवारं स्थानम् आरक्षितम्। मालदीव नगरे आयोजिते 24,000 वर्षस्य एशिया सर्फिंग प्रतिस्पर्धायां पुरुष महिला इत्येतौ स्थानम् आरक्षितवन्तौ। अस्य वर्षस्य यूएस ओपन टेनिस प्रतियोगिता अद्य न्यूयॉर्क नगरे आरप्स्यते। भारतस्य नेतृत्वं कुर्वन्तौ सुमित नागलः, रोहन बोपन्ना इत्येतयोः उपरि एव सर्वेषां दृष्टि भविष्यति। 29,000 वर्षात् सुमित नागलः प्रथमः भारतीयः पुरुषः भविष्यति यः चतुर्षु ग्रैंडस्लैम प्रतियोगितासु एकल प्रतिस्पर्धायां वर्ष एकस्मिन् एव भागं गृह्णीयात् इति वार्ताः।